एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहलः। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य प्रयोजनाय ह्य आराष्ट्रम् मुख्य निर्वाचनाधिकृतानाम् कार्यालयेषु च उत्साहजनक रूपेण शान्तिपूर्ण रूपेण च मनोनयन पत्रस्य पंजीकरणस्य कार्यम् सम्पन्नमस्तीति निर्वाचनायोगेन ज्ञापितम् वर्तते। आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई आराष्ट्रम् सहस्रद्वयेन पञ्चविंशत्यधिक नवशतेन च जनैः प्रत्याशितायाः मनोनयन पत्रस्य पंजीकरणम् कारितमस्तीति असूचयत्। आराष्ट्रम् पंजीकारितानाम् प्रत्याशिनाम् सूची ह्य एव सम्बद्ध निर्वाचनाधिकृतानाम् कार्यालयेषु प्रकाशितास्तीति निर्वाचनायोगेन ज्ञापितम् वर्तते। एवमेव अद्य पूर्वाह्नस्य दशवादनात् त्रिवादनम् यावत् पंजीकारितानि नामानि आधृत्य विरोध ज्ञापनाय समय निर्धारितोऽस्ति। प्राप्त निवेदनानाम् अनुसन्धानम् कृत्वा श्व माघमासस्य अष्टम दिवसस्य सायम् पञ्चवादनात् सप्तवादनम् यावत् प्रत्याशिनाम् नामावली प्रकाशयिष्यते इति निर्वाचनायोगेन ज्ञापितम् वर्तते। निर्वाचनायोगस्य अनुसारेण माघस्य नवमे दिवसे पूर्वाह्नस्य दशवादनात् एकवादनम् यावत् प्रत्याशिभिः स्वस्य नाम प्रत्यावर्तयितुं शक्यते। तस्मिन्नेव दिने दिवात्रिवादनम् यावत् प्रत्याशिनाम् अन्तिम नामावलिम् प्रकाश्य सायं सप्तवादनम् यावत् प्रत्याशिभ्यः निर्वाचनचिह्नस्य प्रदानस्य कार्यक्रमोऽस्ति। प्रत्याशिताया मनोनयन पत्रस्य पंजीकरणानन्तरम् ह्य एव आयोगे आयोजिते पत्रकार सम्मेलने कार्यवाहक प्रमुख निर्वाचनायुक्तः रामप्रसाद भण्डारी निर्वाचनाचार संहितायाः पूर्णरूपेण पालनम् कृत्वा स्वच्छे निष्पक्षे भयरहिते च वातावरणे निर्वाचनस्य सम्पादनाय सहयोगम् कर्तुम् सर्वाणि राजनीतिक दलानि सम्बद्ध पक्षाञ्च अन्वरुणत्। अत्रान्तरे आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते प्रत्यक्ष पक्षतः आराष्ट्रम् विद्यमानेषु निर्वाचन क्षेत्रेषु विभिन्नानाम् राजनीतिक दलानाम् शीर्ष नेतृभिः निवर्तमान मन्त्रिभिश्च प्रत्याशिता पंजीकारिता अस्ति। निर्वाचनायोगस्य अनुसारेण नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना राष्ट्रिय स्वतन्त्र दलस्य वरिष्ठ नेत्रा बालेन्द्र शाहेन च झापा जनपदस्य पञ्चम निर्वाचन क्षेत्रे मनोनयन पत्रम् पंजीकारितम् अस्ति। एवमेव नेपाली कम्युनिष्ट दलस्य संयोजकेन पुष्पकमल दाहाल प्रचण्डेन रूकुम पूर्व जनपदे प्रत्याशिता पंजीकारिता अस्ति। प्रगतिशील लोकतान्त्रिक दलस्य संरक्षकेण डा बाबुराम भट्टराई इत्यनेन गोर्खा जनपदस्य द्वितीय निर्वाचन क्षेत्रे नेपाली कम्युनिष्ट दलस्य सहसंयोजकेन माधव कुमार नेपालेन च रौतहट जनपदस्य चतुर्थे निर्वाचन क्षेत्रे मनोनयन पत्रम् पंजीकारितमस्ति। नेपाली कांग्रेस दलस्य सभापतिना गगन कुमार थापा विदेन सर्लाही जनपदस्य चतुर्थे निर्वाचन क्षेत्रे प्रतिनिधेर माध्यमेन प्रत्याशिता पंजीकारिता अस्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामी छाने विदेन चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे प्रतिनिधेर माध्यमेन प्रत्याशिता पंजीकारिता अस्ति। एवमेव निवर्तमानेन सभामुखेन देवराज घिमिरे विदेन उपसभामुखेन इन्दिरा राणा इत्यनया च झापा जनपदस्य द्वितीय निर्वाचन क्षेत्रे प्रत्याशिता पंजीकारिता अस्ति। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्षेण राजेन्द्र लिङ्गदेन इत्यनेन च झापा जनपदस्य तृतीय निर्वाचन क्षेत्रे मनोनयन पत्रम् पंजीकारितम् वर्तते। उज्यालो नेपाल दलस्य अध्यक्षेण कुलमान घिसिङ इत्यनेन काष्ठमण्डपस्य तृतीय निर्वाचन क्षेत्रे प्रत्याशिता पंजीकारिता विद्यते। गृहमन्त्री ओमप्रकाश अरियालः निगदति निर्वाचनस्य कृते शान्ति सुरक्षां संस्थापयितुं सर्वकारः प्रतिबद्धो वर्तते। सुरक्षा सम्बद्ध पत्रकारैः गृहमन्त्रालये पूर्वेद्युः विहिते विमर्शने गृहमन्त्री अरियालः प्रदेशगत रूपेण सुरक्षा गोष्ठीः समायोज्य एकीकृत सुरक्षा योजना क्रियान्वितास्तीति असूचयत्। तदवसरे गृहमन्त्री अरियालः विगतस्य तुलनायां शान्ति सुरक्षा सुदृढा जायमानास्तीति भाषमाणः गृहमन्त्री अरियालः शान्तिपूर्ण रूपेण निर्वाचनस्य सम्पादनं प्रति सर्वकारस्य सम्प्रति ध्यानं केन्द्रितं वर्तते इति असूचयत्। निर्वाचन आयोगेन राष्ट्रिय सभा सदस्यानां निर्वाचनस्य मतदातारः मतदान समये परिचय पत्रं नीत्वा तत्र गन्तुं निर्दिष्टाः वर्तन्ते। माघमासस्य एकादशे दिवसे आयोक्ष्यमाणस्य निर्वाचनस्य मतदातृभिः आत्मना सुस्पष्टेन परिचयेन युतस्य परिचय पत्रस्य प्रदर्शनम् आवश्यकं भविष्यति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत। अन्तिम मतदातृनामावल्यां सन्निविष्टै मतदातृभिः निर्वाचन आयोगेन प्रदत्तं मतदातृ परिचय पत्रं निर्वाचनाधिकृतेन प्रदेश सभाया सदस्य पदे निर्वाचन समये प्रदत्तं प्रमाणपत्रं नागरिकताया प्रमाणपत्रं राष्ट्रिय परिचय पत्रं वा प्रस्तोतव्यानि भविष्यन्ति इति आयोगेन ज्ञापितं वर्तते। सर्वोच्च न्यायालयेन विशेष महाधिवेशनात् नेपाली कांग्रेस दलस्य सभापते गगन थापा विधस्य नेतृत्वस्य समूहाय आधिकारिकता प्रदान सम्बद्धस्य निर्वाचनायोगस्य निर्णयस्य विरूद्धे पञ्जीकारितं निवेदनमाधृत्य अन्तरिमादेशं प्रदातुम् अस्वीकृतमस्ति। न्यायाधीशस्य सुनील कुमार पोखरेलस्य एकल न्यायपीठेन ह्यः सभापते थापाविधस्य विरूद्धे शेरबहादुर देउवाविधस्य नेतृत्वे विद्यमानेन समूहेन पञ्जीकारिते याचिका निवेदने ह्यः श्रवणं विधाय अन्तरिमादेशं प्रदातुम् अस्वीकृतं वर्तते। न्यायालयेन तस्य विवादस्य याचिका निवेदने गभीराः विधिगताः सांविधानिकाश्च प्रश्नाः उत्थापिताः सन्तीत्यतः एतेषां प्रश्नानां शीघ्रमेव निरूपणम् आवश्यकम् अस्तीत्यतः विपक्षिणां लिखितस्य प्रत्युत्तरस्य प्रस्तुतेः अनन्तरं पञ्चदश दिवसाभ्यन्तरे प्रस्तुतस्य निवेदनस्य अन्तिमश्रवणस्य कृते अग्राधिकारः प्रदत्तोऽस्ति।